स्तम्भे घट्टयतो हिरण्यकशिपोः कर्णौ समाचूर्णयन् आगूर्ण जगदण्ड कुण्ड कुहरो गोरस्तवाभूद्रवः श्रुत्वायम् किल दैत्यराज हृदये पूर्वम् कदाप्यश्रुतौ कम्पः कश्चन सम्पपात चलितोऽप्यम्भोजभूविष्टरात् दैत्ये दिक्षु विसृष्ट चक्षुषि महासम्भ्रम्भिनिस्तम्बतः सम्भूतौ न मृगात्मकम् न मनुजाकारम् वपुस्ते विभो किम् किम् भीषणमेतदद्भुतमिति विभ्रान्त चित्ते सुरे विस्पूज्य दवणोग्ररोम विकसद्वर्ष्मा समादृम्भताः सप्त स्वर्ण सवर्ण भूनदतिरूक्षाक्षम् सकाके सदप्तम् पप्रनिकुम्भिताम्बरमहो जीयात्त वेदौ वपुः व्याप्तम् व्याप्तमहादरी सखमुखम् खड्गोग्रवर्गन्महाजिह्वा निर्गम दृश्यमान सुमहादंशायुगोड्डामरौ उत्सर्पज्वलिमङ्गभीषणहनु रस्वस्तवीयस्तरग्रीवम् पीबन दोषतोद्गतन कर्पूराम् सुदूरोल्बणौ यो मूलङ्गि गनागनोपमगन प्रद्वान निर्धावित स्पर्धालु प्रकरौ नमामि भवतस्तन्नारसिंहौ वपुः नूनौ विष्णुरयम् निहन्यमुमिति भ्राम्यद्वदभीषणौ दैत्येन्द्रौ समुपाद्रवन्तमदृता दोर्व्यापितृव्याम्यमो वीरो निर्दलितोत खड्गफलके गृह्णन् विचित्र श्रमान् व्यावृण्वन् पुनरापपात भुवन ग्रासोद्यतम् त्वामहो ग्राम्यन्तम् दितिजाधमम् पुनरपि प्रोदृश्य दोर्व्याम् जभत् द्वारे तोरुयुगे निपात्य नकरान् उत्थाय वक्षो भुवि निर्बिन्दन् अधिगर्भ निर्बलगल रक्ताम्बुबद्धोत्सवम् पायौ पायमुदैरयो बहु जगत् संहारि सिंहारवान् त्यक्त्वा तम् हतमाशुलक्तलहरी सिक्तो न मद्वर्ष्मणि प्रत्युत्पत्य समस्त दैत्यपटलीम् चाखाद्यमाने त्वयि ब्राह्म्यद्भूमि विकम्पिताम्बुजिकुलौ व्यालोलशैलोत्तरौ प्रोत्सर्पत्कचरौ चराचरमहो दुस्तामवस्ताम् दधौ तावन्मांसवपाकरालवपुषम् घोरान्त्रमालाधरम् त्वामद्ये सवमिद्धकोपमुषितम् दुर्वार गुर्वारवम् अभ्येतुम् न शशक कोऽपि भुवने दूरे चिता भीरवः सर्वे शर्ववीरिञ्च वासवमुखः प्रत्येकमस्तोषत भूयोऽप्यक्षतरोषधामि भवति ब्रह्माज्ञया बालके प्रह्लादे पदयोर्नमत्यपभये कारुण्यभाराकुलः शान्तस्त्वम् करमस्य मूर्नि समदः स्तोत्रैरतोद्गायतस्तस्या कामधियोऽपि तेनितवरम् लोकाय चानुग्रहौ एवम् नाकितरौद्रचेष्टित विभो श्रीतापनीयाभितः श्रुत्यन्त स्फुट गीत सर्वमहिमन् अत्यन्त शुद्धाकृते तत्तादृक् निखिलोत्तरौ पुनरहो कस्त्वाम् परोलङ्घयेत् प्रह्लाद प्रिय हे मरुत्पुरपते सर्वा मया पाहि माम्।